सर्वेभ्यो नमः. अस्माकं प्रवर्तमानविषयः अस्ति अव्ययानि इति. अस्मिन् विषये गतवर्गे वयम् एकां कथां पठितवन्तः, पूर्णतया न, अर्धभागं पठितवन्तः. अन्धाय अनन्दाय देहि इति पुटसङ्ख्या अस्ति 157. तत्र कथायां देवलः अस्ति, सुवर्चला इति अस्ति, अपि ऋषिकुमाराः सन्ति. अस्तु, तर्हि कथायाः विषये कोऽपि किञ्चित् वक्तुम् इच्छति वा? तत्र उमा भगिनी किञ्चित् वदति वा कथायाः विषये?
ऋषि अस्ति, तस्य पुत्री अस्ति, तस्याः विवाहविषये किं सम्भाषणं प्रचलति. देन् वाट् इन्विटेशन् प्रेषयति ऋषिकुमारान्. पुत्री वदति, अहं विवाहं करोमि. दिस् कैण्ड् आफ्
ईदृश
वरेण सह. इस् इट् वरेण सह?
ईदृशेन सह
अहं विवाहं करोमि. यः अन्धः अपि अस्ति, अनन्दः अपि अस्ति
इति विषयः. समीचीनं भगिनि, समीचीनं भगिनि, धन्यवादः. सूर्यकुमारी भगिनी तस्मिन् विषये किञ्चित् वक्तुम् इच्छति वा तत्र कथायाः विषये?
धातृस्यान् देवलः ऋषिकुमारान् प्रेषितवान्. बहूनि ऋषिकुमाराः आगताः.
अग्रे तत्र यावत्पर्यन्तं वयं पठितवन्तः तत्र, तत्र प्रायशः ऋषिकुमाराः आगताः, तदनन्तरं किं भवति?
ऋषिकुमाराः तस्याः वचनं श्रुत्वा.
ओ न, तद् इदानीं न कृतवन्तः भगिनि, तावत् वयं न कृतवन्तः इति मन्ये. केवलं तस्मै दृष्ट्वा, तत्र दास्यामि इति, तस्मै ऋषिकुमाराय त्वां दास्यामि इति, तावत्पर्यन्तमेव वयं कृतवन्तः. अस्तु, पुनरेकवारं पठामः. अद्य गीताञ्जलि भगिनी नमस्कारः.
नमस्ते महोदय, क्षम्यतां विलम्बेन आगतवती.
चिन्ता मास्तु भगिनी, तत्र पेज् 157 मध्ये स्मः. अन्धाय अनन्दाय देहि इति कथा अस्ति. भवती एव आरम्भं, तत्र वयं प्रायशः परिच्छेदत्रयं कृतवन्तः, किन्तु पुनरेकवारं तत् पठामः. भवती एव आरम्भं करोति वा तत्र?
आम् महोदय. अन्धाय अन्धाय अन्धय
अन्धाय अनन्धाय
अन्धाय अनन्धाय देहि अव्ययानि. एतां कथां सावधानतया पठत. पुरा देवलः नाम सर्वशास्त्र कोविदः धार्मिकः ऋषिः आसीत्. तस्य सुवर्चला नाम गुणवती कन्यका आसीत्. सुवर्चला यदा प्राप्त वयस्का जाता, तदा देवलः पुत्रीं कस्मै ददामि इति चिन्ताकुलः अभवत्. तदा सुवर्चला एव पितरम् उक्तवती, पितः माम् अन्धाय अनन्धाय देहि इति. तच्छ्रुत्वा देवलः अवदत्, पुत्री किमर्थम् उन्मत्ता इव वदसि इति सुवर्चला अवदत् पितः नाहम् उन्मत्ता इव वदामि सत्यमेव वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु अहमेव तेषु योग्यं चिनोमि इति
हा धन्यवादः भगिनी बहु सम्यक् आसीत् हा अग्रिमपरिचयः नरेश महोदय पठति वा भानुचेतनी महोदय नमस्कारः शुभोदय नमस्कारः महोदय नरेश महोदय तत्र त्वं यथा इति
त्वं यथा वदसि तथा इति उक्त्वा देवलः तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान् देवलस्य स्वभावं सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमाराः तां परिणेतुम् आगताः देवलः तान् सर्वान् विधिवत् सम्पूज्य पुत्रीम् अवदत् पुत्रि एतेषु योग्यं वरय तस्मै ऋषिकुमाराय त्वां दास्यामि इति
हा समीचीनं महोदय धन्यवादः अस्तु एतावत् वयं गतवर्गे कृतवन्तः पुनरेकवारम् अहं तत्र पश्यामः किम् अभवत् इति गतवर्गे चर्चा अभवत् तत्र पुनरेकवारं पुनस्मरणार्थं कुर्मः तत्र पुरा इत्युक्ते पुराणकाले देवलः नाम ऋषिः आसीत् कीदृशः ऋषिः सः धार्मिकः धर्मम् आचरति धर्मेण जीवति इति धार्मिकः अपि सर्वशास्त्रकोविदः सर्वशास्त्रान् सः जानाति सर्वशास्त्रेषु निपुणः सः अतः सर्वशास्त्रकोविदः सर्वशास्त्रकोविदः धार्मिकः तादृश ऋषिः ऋषिः कः देवलः देवलः इति पदस्य विशेषणमस्ति ऋषिः कीदृशऋषिः इत्युक्ते धार्मिकः सर्वशास्त्रकोविदः अतः सर्वशास्त्रकोविदः धार्मिकः ऋषिः सर्वं देवलः इति पदस्य विशेषणाः भवन्ति तादृशऋषिः आसीत् तस्य इत्युक्ते देवलस्य तस्य देवलस्य सुवर्चला नाम गुणवती कन्यका आसीत् तस्य कन्यका इत्युक्ते कन्या इत्युक्ते पुत्री तस्य पुत्री आसीत् तस्य नाम सुवर्चला सा कीदृशी सा गुणवती इत्युक्ते सद्गुणेन युक्ता सा सद्गुणेन युक्ता सा गुणसम्पन्ना अथवा गुणवती तादृशकन्या तादृशपुत्री तस्य इत्युक्ते देवलस्य पुत्री आसीत् सुवर्चला यदा प्राप्तवयस्का जाता इत्युक्ते वयं वदामः पञ्चवर्षीयबालिका अथवा दशवर्षीयबालिका वयः इति विषये तत्र प्राप्तवयस्का वयः इत्युक्ते एज् इति वयस्का प्राप्तवयस्का इत्युक्ते विवाहयोग्या जाता यदा सुवर्चला विवाहयोग्या जाता तदा देवलः तस्याः पिता चिन्ताकुलः अभवत् सः चिन्तया आकुलः अभवत् मग्नः चिन्तामग्नः अभवत् कस्मिन् विषये सः चिन्तामग्नः अभवत् पुत्री इदानीं प्राप्तवयस्का विवाहयोग्या अस्ति अतः पुत्रीं कस्मै ददामि इति सः चिन्ताकुलः अभवत् तदा सुवर्चला एव देवलः किमपि न उक्तवान् सुवर्चलां प्रति तत्र मम चिन्ता अस्ति इति किमपि सः न उक्तवान् किन्तु सुवर्चला सा एव ज्ञात्वा सा एव पितरम् उक्तवती पितः इति कीदृशविभक्ति तत्र
सम्बोधन
हा समीचीनं पितः माम् इति विभक्ति का तत्र द्वितीया माम् अन्धाय अनन्दाय देहि देहि इति तत्र पुरुषः कः पुरुषः तत्र देहि उत्तमपुरुषः मध्यमपुरुषः हा मध्यमपुरुष त्वं माम् अन्धाय अनन्दाय देहि यः अन्धः अस्ति अपि अनन्दः अस्ति अन्धः इत्युक्ते सः द्रष्टुं शक्नोति द्रष्टुं न शक्नोति अन्धः अपि अनन्दः इत्युक्ते यः द्रष्टुं शक्नोति अतः अन्धः अस्ति अपि अनन्दः अस्ति तस्मै मां देहि इति सः वदति तत् श्रुत्वा तस्याः वचनं श्रुत्वा देवलः अवदत् पुत्री पुत्री इत्युक्ते तत्र कीदृशविभक्ति तत्र
सम्बोधन
पुत्री इति सर्वदा किं भवति पुत्री स्त्रीलिङ्गे अस्ति तत्र पुत्री प्रथमविभक्तौ ह्रस्व इकारः वा अथवा दीर्घ इकारः पुत्री इति
दीर्घ
किन्तु सम्बोधने ह्रस्व इकारः पुत्री किमर्थम् उन्मत्ता इव वदसि उन्मत्ता 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 इत्युक्ते हा तत्र सम्यक्तया न चिन्तयति इति हा उन्मत्ता इव वदसि इति सुवर्चला वदत् पितः न अहं नाहम् उन्मत्ता इव वदामि तादृशं न वदामि सत्यमेव वदामि सम्यक्तया वदामि सम्यक् विषयः एव अहं वदामि भवान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु तत्र येभ्यः इति चतुर्थीविभक्तिरूपमस्ति कस्य पदस्य यः हा समीचीनं चतुर्थीविभक्ति अपि वचनम् बहुवचनं सः अस्ति चेत् तेभ्यः यः अस्ति चेत् येभ्यः येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु तत्र येभ्यः मां दातुं चिन्तयति तद् एकभागमस्ति अन्यद् भागमस्ति तादृशान् ऋषिकुमारान् अत्र आनयतु इति तत्र प्रथमभागं येभ्यः द्वितीयभागं तादृशान् इति एतादृशवाक्यं रूपं कीदृशम् इति कोऽपि वदति वा येभ्यः मां दातुं चिन्तयति तादृशान् येभ्यः मां दातुं चिन्तयति तादृशान् ऋषिकुमारान् अत्र आनयतु खण्डद्वयमस्ति प्रथमखण्डे येभ्यः इति अस्ति
बहुवचनं
न वाक्यस्य कीदृशवाक्यं एतादृशवाक्यं वयं
यदा तदा यथा तथा
न तादृशम् अस्ति यथा तथा भागद्वयमस्ति समीचीनं भगिनि किन्तु अत्र यः येभ्यः इति अस्ति
यः सः
हा तादृशवाक्यमस्ति यः सः तत्र सर्वदा प्रथमविभक्तिरूपम् इति नास्ति नियम किमपि तादृशनियमः नास्ति यः सः यं येन तेन सर्वं भवति तत्र प्रथमखण्डे एका विभक्ति द्वितीयखण्डे अन्या विभक्ति भवितुम् अर्हति अत्र येभ्यः मां दातुं चिन्तयति तान् तादृशान् ऋषिकुमारान् अत्र आनयतु इति सकर्मकक्रियापदमस्ति किम् आनयामि किम् आनीतव्यम् इति तत्र ऋषिकुमारान् इति कर्मपदं भवति तत्र तादृशान् इति विशेषणं भवति तादृशान् ऋषिकुमारान् अत्र आनयतु अहम् एव तेषु इत्युक्ते केषु
ऋषिकुमारेषु
योग्यं चिनोमि इति तत्रापि किं चिनोमि तदपि सकर्मकक्रियापदमस्ति अतः योग्यः यः योग्यः अस्ति तं योग्यम् अहं चिनोमि इति तत्र योग्यमपि कर्मपदं भवति अस्तु सर्वं समीचीनं वा एतद् गतवर्गे कृतवन्तः किन्तु पुनरेकवारम् अस्तु इदानीं तृतीयपरिच्छेदः त्वं यथा वदसि तथा एव करोमि इति देवलः उक्त्वा तादृशान् ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान्। आनेतुम् इति आनयतु इति आसीत्, तत्र आनयतु इति लकारः कः? आनयतु
अव्ययं
न, आनयतु अव्ययं नास्ति, आनयतु इति
लोट्
लकारः, लोट् लकारः। पुरुषः कः पुरुषः?
प्रथम,
हा भवान् आनयतु इति, हा समीचीनं। भवान् वाक्ये प्रथमपदमस्ति, भवान् अन्तिमपदमस्ति, आनयतु प्रथमपुरुषः इति जानीमः। समीचीनं भगिनि, हा तत्र आनयतु लोट्लकार, अत्र आनेतुं तुमुन् रूपम् अस्ति, आनेतुम् इति ऋषिकुमारान् आनेतुं, ऋषिकुमारान् भवति कर्मपदं। देवलः तादृशान् ऋषिकुमारान् आनेतुं सः किम् आनेतुं किं कृतवान्? सः सर्वेभ्यः आश्रमेभ्यः शिष्यान् प्रेषितवान्। देवलः प्रेषितवान् कं? प्रेषितवान् ऋषिकुमारान्, न ऋषिकुमारान् न प्रेषितवान्,
शिष्यान्
प्रेषितवान्। देवलः शिष्यान् प्रेषितवान्। इदानीं तत्र गतवर्गे तत्र प्रश्नः आसीत् सर्वेभ्यः आश्रमेभ्यः इति, तत्र विभक्ति का? आश्रमेभ्यः। आश्रमः कीदृशपदमस्ति? आश्रमः पुल्लिङ्गपदं, पुल्लिङ्गपदं वा स्त्रील आश्रमः? पुल्लिङ्गपदं, हा अकारान्त पुल्लिङ्गपदं, हा देवशब्दवत्। तत्र देवेभ्यः आश्रमेभ्यः विभक्ति का तत्र?
पञ्चमी बहु,
पञ्चमी बहु, अथवा किम् अन्यत् किमपि भवितुम् अर्हति वा? चतुर्थी बहुवचनं, हा देवेभ्यः आश्रमेभ्यः इत्युक्ते तत्र चतुर्थी अथवा पञ्चमी, किन्तु बहुवचनमेव अस्ति।
पञ्चमी न शक्यम् अहं चिन्तयामि।
हा अस्तु भगिनि, किमर्थम्?
कारणं वियोगः नास्ति।
हा वियोगः नास्ति, सत्यं भगिनि, सत्यं। हा तत्र वस्तुतः तत्र चतुर्थी विभक्ति एव अस्ति। तत्र उदाहरणार्थम् एतत् चिन्तयामः, अहं पत्रं प्रेषयामि, प्रेषयामि इति क्रियापदमस्ति, तत्र किं प्रेषयामि इति वक्तुं शक्नुमः वा? कर्मपदमस्ति वा प्रेषयामि इति क्रियापदस्य? पत्रम्, पत्रमिति कर्मपदं भवति खलु तत्र, हा किन्तु किन्तु तत्र किं वदामः? अहं पत्रं प्रेषयामि इति कोऽपि वदति चेत् अहं वदामि अहं पत्रं प्रेषयामि, भवन्तः कीदृशप्रश्नः कुर्वन्ति, कीदृशं प्रश्नं पृच्छन्ति मां? किम् इत्युक्ते पत्रं, किम् इत्युक्ते पत्रं प्रेषयामि, हा कस्मै पत्रं प्रेषयति इति, हा तत्र चतुर्थीविभक्तिरूपमस्ति, कस्मै प्रेषयति। अत्रापि तादृशप्रयोगः एव, आश्रमेभ्यः, आश्रमेभ्यः शिष्यान् प्रेषितवान्। यः तत्र शिष्याः गच्छन्ति, कुत्र गच्छन्ति? आश्रमं गच्छन्ति अथवा आश्रमान् गच्छन्ति, किन्तु देवलः तान् शिष्यान् आश्रमेभ्यः प्रेषितवान्। प्रेषितवान् इति किम् इति भवति तत्र शिष्यान् अथवा कम् इति अत्र शिष्यान्, किन्तु कस्मै इति प्रश्ने आश्रमेभ्यः शिष्याः आश्रमान् गच्छन्ति। किमर्थं गच्छन्ति? तादृशान् ऋषिकुमारान् आनेतुं ते सर्वान् आश्रमान् गच्छन्ति। ते सर्वे देवलैः प्रेषिताः, ते सर्वे देवलैः प्रेषिताः सन्ति। देवलस्य प्रभावम्, अतः तत्र सर्वेभ्यः आश्रमेभ्यः चतुर्थी विभक्ति एव अस्ति। मम भगिनि समीचीनं वा?
समीचीनम्।
देवलस्य प्रभावं सुवर्चलायाः ख्यातिं च श्रुत्वा बहवः ऋषिकुमारः तां परिणेतुं आगताः, ऋषिकुमाराः आगताः तत्र देवलस्य आश्रमम् आगताः. किमर्थं तां परिणीतुं, ताम् इत्युक्ते सुवर्चलां परिणीतुं, किमर्थं ते कुतः ते आगताः, किं कारणं, कस्मात् ते सर्वे आगताः इत्युक्ते, ते सर्वे श्रुतवन्तः. किं श्रुतवन्तः? देवलस्य प्रभावम् अपि सुवर्चलायाः ख्यातिं च श्रुत्वा त्वान्तरूपं बहवः ऋषिकुमाराः, केवलम् एकः द्वे इति नास्ति, अनेकाः ऋषिकुमाराः तत्र आगताः सन्ति. देवलः तान् सर्वान्, तान् इत्युक्ते कान्? यः आगतान् सर्वान् ऋषिकुमारान् देवलः किं कृतवान्? विधिवत् सम्पूज्य, ल्यबन्तरूपं सम्पूज्य, विधिवत् यथा विधिः अस्ति, तत्र सत्कारं करणीयम्, अतिथेः सत्कारं करणीयम् इति यथा धर्म यति यादृशविधिः अस्ति तादृशः विधिवत् सः सत्कारं सर्वं कृत्वा, सर्वान् प्रति सत्कारं कृत्वा तदनन्तरं पुत्रीं सः वदति, किं पुत्री एतेषु योग्यं वरय, यः योग्यः अस्ति ते एतेषु तं तं वरय, त्वं वरय, तं त्वं वरय, तं योग्यं त्वं वरय, तस्मै ऋषिकुमाराय त्वां दास्यामि. यं योग्यं भवति चिनोति तस्मै योग्यै ऋषिकुमाराय त्वां दास्यामि इति. अस्तु, समीचीनं वा? एतावत् सर्वम् अवगतवन्तः वा?
ख्यातिम् इत्युक्ते किं? फेमस्?
हा, फेम् इति.
प्रभावमपि फेमस् न?
प्रभावं फेमस् अथवा शक्ति, तस्य इन्फ्लुयेन्स्, हा, प्रोवेस् इन्फ्लुयेन्स्, हा, प्रभावः.
महोदय,
हा
महोदय, किमर्थं शिष्यान् प्रेषितवान्?
तादृशान् ऋषिकुमारान् आनेतुम्. तत्र आश्रमः अस्ति भगिनि, सुवर्चला वदति अन्दाय आनन्दाय मां देहि इति. इदानीं ऋषिः किं करोति? ऋषिकुमारान् ऋषिकुमाराः सर्वे आगच्छन्ति चेत् तेषु एकं तस्य पुत्री चिनोति इति. किन्तु ते कथम् आगच्छन्ति? यदि कोऽपि सर्वेभ्यः आश्रमेभ्यः सर्वान् आश्रमान् गत्वा आह्वानं करणीयं खलु? आह्वानार्थं शिष्यान् प्रेषितवान्, आह्वानार्थम् आह्वयितुम्. समीचीनं वा भगिनि? हा, तत्र अत्र विवाहविषये अत्र किमपि भवति, अतः सर्वे आगच्छन्तु, सर्वे ऋषिकुमाराः आगच्छन्तु इति तत्र आह्वानं दातुं शिष्याः सर्वे गतवन्तः, अथवा देवलः तान् तस्य शिष्यान् प्रेषितवान् आश्रमेभ्यः, सर्वेभ्यः आश्रमेभ्यः प्रेषितवान्.
महोदय, समाचारदूताः?
समाचार, हा हा, समाचार किं दूर्ताः वा? दूताः, दूताः, हा, समीचीनं भगिनि. हा, शिष्याः समाचारदूताः भूत्वा, समीचीनं भगिनि, हा, भूत्वा, हा, समीचीनम्. अस्तु, अग्रे तत्र एतावत्पर्यन्तं वयं गतवर्गे कृतवन्तः, इदानीम् अग्रे गच्छामः. तत्र अन्धाय अनन्दाय इति अस्ति, बहु कुतूहलेन प्रतीक्षां कुर्मः तत्र कीदृशः भवति यः अन्धः अस्ति अपि आनन्दः अस्ति इति. हा अस्तु, तत्र अग्रे सूर्यकुमारी भगिनी पठति वा अग्रे?
आम् महोदय. सुवर्चला तान् दृष्ट्वा उक्तवती, भवत्सु यः अन्धः अस्ति आनन्दः अस्ति तस्मै पिता मां दास्यति इति. ऋषिकुमाराः तस्याः वचनं श्रुत्वा विस्मिताः जाताः. ततः सर्वे परस्परमुखं दृष्ट्वा असन्तोषेण देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः. ततः सुवर्चला सन्तोषेण पितृगृहे एव आसीत्.
अग्रिमवाक्यं तदपि पठतु भगिनि.
अथ कदाचित् श्वेतकेतुः नाम न्यायविशारदः ऋषिकुमारः एतं वृत्तान्तं श्रुत्वा तत्र आगतवान्, यत्र देवालस्य आश्रमः आसीत्.
हा इति समीचीनं भगिनि. हा इदानीं तत्र किञ्चित् वदति वा यत् पठितवती तत्र?
आं महोदय. सुवर्चला सर्वे ऋषिकुमारान् दृष्ट्वा
सर्वान्
ऋषिकुमारान् दृष्ट्वा उक्तवती.
हा समीचीनं भगिनि. हा अग्रे.
भवत्सु यः अन्धः अस्ति आनन्दः अस्ति तस्मै एव मम पिता मां दास्यति इति.
हा तत्र दास्यति, कः दास्यति?
मां
न कः दास्यति?
देवलः.
हा देवलः पिता, पिता देवलः मां दास्यति. कं दास्यति?
मां.
मां मां कां? सुवर्चलां. मां दास्यति कस्मै? यः
अन्धः आनन्दः च
अपि अस्ति तस्मै पिता मां दास्यति. तत्र भवत्सु इति अस्ति, भवत्सु इति विभक्ति जानाति वा भगिनि?
षष्ठी बहुवचनं
भवत्सु. हा सप्तमी अस्ति
भगिनि.
हा सप्तमी बहुवचनं. हा तत्र हा सप्तमी भवत्सु. भवान् शब्दस्य भवत् शब्दस्य भवान् इति प्रथमविभक्तौ एकवचने, इदानीं तत्र अत्र अस्ति भवत्सु अस्ति सप्तमीविभक्ति बहुवचनं बहुवचनं. समीचीनं भगिनि. तत्र एकवचनरूपं जानाति वा? सप्तमीविभक्ति सप्तमीविभक्ति भवतः षष्टिविभक्ति अस्ति, षष्टिविभक्ति अस्ति भवति इति. समीचीनं. हा भवतः भवतः नाम किम् इति प्रथमदिने एव भवति खलु. हा किन्तु हा किन्तु षष्टि तु जानीमः, सप्तमी अस्ति भवति. हा भवति इति. हा समीचीनं भगिनि. हा भवत्सु इति बहुवचनं
यथा मयि.
हा सत्यं भगिनि सत्यं. हा मयि इति समीचीनं. हा भवति इति. हा समीचीनम्, अत दास्यामि इति सा उक्तवती. इदानीं किं भवति? सुवर्चला वदति ऋषिकुमारः किं कृतवन्तः इदानीं? ऋषिकुमाराः
विस्मिताः
विस्मिताः जाताः. विस्मिताः इत्युक्ते आश्चर्यभूताः, आश्चर्येन ते सन्ति तत्र. किं किम् उक्तवती सा? एतदेव उक्तवती वा सम्यक्तया शृणोमि वा इति तत्र आश्चर्यम्, आश्चर्येण ते सर्वं तत्र सन्ति. हा ततः, ततः इत्युक्ते तदनन्तरं किं कृतवन्तः?
परस्परं मुखं.
हा परस्परम् एकम् अन्यस्य मुखं दृष्ट्वा एतत् किम्, एतत् किम् इति दृष्ट्वा असन्तोषेण, असन्तोषेण. तत्र तृतीया इति तृतीयविभक्ति, तस्य प्रयोगः, तस्य प्रयोगः तस्याः तृतीयाविभक्तेः प्रयोगः कीदृशः अस्ति चेत् तत्र माध्यमम् एकमस्ति माध्यमम् अहं हस्तेन खादामि इति तद् एकम् एकः प्रयोगः अस्ति तृतीयाविभक्तेः. अन्यप्रयोगः अस्ति भावः हा सन्तोषेण अहं खायामि सन्तोषेण अहं भोजनं खादामि तत्र सन्तोषेण हस्तेन भोजनं खादामि तत्र हस्तः तृतीयाविभक्तिरूपं सन्तोषेण तृतीयविभक्तिरूपं किन्तु तत्र भेदः अस्ति खलु हस्तः तत्र माध्यमं सन्तोषः तत्र भावः अत्र असन्तोषेण इति भावः असन्तोषेण देवलं निन्दित्वा ते देवलं निन्दन्ति केन कटुवचनानि वचनम् इति वचनं कटुवचनानि उक्त्वा ते देवलस्य निन्दनं कुर्वन्ति अपि तदनन्तरं स्वस्थानाय गतवन्तः स्वस्थानं प्राप्तुं गतवन्तः इत्युक्ते स्वाश्रमं
स्वगृहं
स्वस्थानं गतवन्तः स्वस्थानाय अत्र चतुर्थीविभक्तिरूपं तदपि समीचीनमस्ति स्वस्थानाय गतवन्तः ततः तदनन्तरम् इदानीं कोऽपि ऋषिकुमारः तत्र नास्ति अनेकाः ऋषिकुमारः आगतवन्तः किन्तु परिणेतुं तत्र सर्वे सिद्धाः आसन् किन्तु इदानीं कोऽपि नास्ति ततः सुवर्चला सन्तोषेण पुनः तृतीयविभक्ति भावः पितृगृहे एव आसीत् तत्र पितृगृहे इति विभक्ति का तत्र
सप्तमी
एकवचनं समीचीनं तत्र यदि पितृगृहे इति एकमेव पदम् अस्ति समस्तपदं तत्र पदद्वयं कुर्मः चेत् किं भवति तत्र रूपं
सप्तमी
न किन्तु रूपं पदद्वयं
पितागृहं
पितागृहं वा षष्ठी हा समीचीनं पितुः गृहे एव आसीत् पितुः गृहे एव आसीत् किन्तु समस्तपदं भवति चेत् तत्र विभक्ति त्यजामः पितृ इति प्रातिपदिकम् उपयुज्य पितृगृहे एव आसीत् इति भवति हा समीचीनं भगिनि अग्रे एकमेव वाक्यमस्ति सूर्यकुमारी भगिनी तदपि पठतु अतः
कदाचित् श्वेतकेतुः नाम न्यायविशारदः
कदाचित् इत्युक्ते किं तत्र
कदाचित्
तत्र चित् अपि छन इति तस्य रूपं तस्य प्रयोगः कीदृशः इति अग्रे पश्यामः अस्तु श्वेतकेतुः नाम
न्यायविशारदः ऋषिकुमारः एतं वृत्तान्तं श्रुत्वा तत्र आगतवान्
अत्र श्वेतकेतुः कः श्वेतकेतुः
न्यायविशारदः ऋषिकुमारः
तत्र प्रथमतया सरलं सरलतया चिन्तयामः प्रथमतया श्वेतकेतुः ऋषिकुमारः तस्य ऋषिकुमारः अस्ति तस्य नाम श्वेतकेतुः सः कीदृशः ऋषिकुमारः
सः
न्यायविशारदः न्यायविशारदः इत्युक्ते किं
धर्म
तद् एकं भवति किन्तु अत्र किञ्चित् भिन्नः अस्ति न्याय इति दर्शनम् अस्ति न्यायशास्त्रम् इति एकमस्ति एकशास्त्रम् अस्ति तस्य निपुणता अस्ति विशारदः अस्ति न्यायशास्त्रं सम्यक्तया स जानाति इति सः न्यायविशारदः न्यायशास्त्रम् इति एकं दर्शनम् अस्ति षड् दर्शने एकमस्ति अन्यतममस्ति अत्र एषः न्यायशास्त्रं सम्यक्तया जानाति सः एतादृशश्वेतकेतुः किं करोति एतं वृत्तान्तं श्रुत्वा. वृत्तान्तम् इत्युक्ते किं किं सर्वं किं किम् अभवत् देवलस्य आश्रमे घटनानि यानि घटनानि अभवत् तान् विषये सर्वान् श्रुत्वा वृत्तान्तम् इत्युक्ते अस्तु भवान् जानाति वा अथवा भवती जानाति वा ह्यः मम गृहे अनेकाः जनाः आगतवन्तः तत्सर्वं ह्यस्तन वृत्तान्तम् अत्र एतं वृत्तान्तम् एतं वृत्तान्तम् इत्युक्ते सर्वे ऋषिकुमाराः आगतवन्तः तत्र तत्र विधिवत् पूजा अभवत् किन्तु तदनन्तरं पुत्री एतादृशम् अवदत् तदनन्तरं सर्वे परस्परं मुखं दृष्ट्वा सर्वम् एतत् वृत्तान्तं सर्वं श्रुत्वा तत्र आगतवान् यत्र सुवर्चला सुवर्चलायाः अथवा देवलस्य आश्रमम् आगतवान्. प्रश्नः अस्ति वा गीताञ्जलि भगिनि?
महोदय, वृत्तान्तम् इति पदस्य प्रथमविभक्ति प्रातिपदिकं किं महोदय?
अत्र वृत्तान्तम् एव वृत्तान्तः प्रायशः पुल्लिङ्गे अस्ति इति मन्ये, अकारान्तपदम् इति मन्ये भगिनि.
मूलशब्दः कः महोदय? वर्तते
वर्तते यत् वर्तते तादृश यत् वर्तते अन्तपर्यन्तं वृत्तान्तः इति पुल्लिङ्ग अकारान्तपुल्लिङ्गपदम् इति मन्ये भगिनि. द्रष्टव्यमस्ति अत्र तु श्रुत्वा इति अस्ति अतः कर्मपदम् अस्ति द्वितीयविभक्तिरूपम् अस्ति अपि अपि पुल्लिङ्गपदमेव किमर्थं तत्र दृष्ट्वा वयं वक्तुं शक्नुमः पुल्लिङ्गपदं वृत्तान्तं पुल्लिङ्गपदम् इति एतम् इति अस्ति एतम् इति द्वितीयविभक्तिरूपम् अस्ति कस्य पदस्य एतम् इति द्वितीयविभक्तिरूपम् अस्ति कस्य पदस्य एषः इति प्रथमविभक्तिरूपम् अस्ति. समीचीनम्. अतः पुल्लिङ्गपदं वृत्तान्तः इति जानीमः. तत्र आगतवान् यत्र देवलस्य आश्रमः आसीत् इत्युक्ते सः देवलस्य आश्रमम् आगतवान् तावदेव. अस्तु अग्रे भानुचितनी महोदय नमस्कारः, पठति वा अग्रे?
महोदय अवश्यं, धन्यवादः. देवलः तं विधिवत् सम्पूज्य पुत्रीम् उक्तवान्. कः उक्तवान्? देवलः उक्तवान्. कं सम्पूज्य उक्तवान्? तं श्वेतकेतुः, कदाचित् श्वेतकेतुः सम्पूज्य उक्तवान्.
न न, तत्र कदाचित् श्वेतकेतुः किमर्थं? कदाचित् विशेषणं नास्ति, कदाचित् एकमस्ति अव्ययमस्ति, केवलं श्वेतकेतुः, तस्य नाम श्वेतकेतुः. अव्ययमस्ति अव्ययमस्ति तत्र कदाचित् इति.
पूर्वस्मिन् परिच्छेदे अथ कदाचित् श्वेतकेतुः इति, तत्र कदाचित् इति किमर्थं कृतं महोदय?
तत्र कदाचित् तत्र अस्मिन् दिने श्वेतकेतुः आगतवान् इति न जानीमः खलु. सः कदा आगतवान्? कदाचित् आगतवान् सः. अतः तत्र तम् इत्युक्ते श्वेतकेतुं, तं श्वेतकेतुं.
कीदृश सम्पूज्य महोदय? तत्र प्रश्नं किं? विधिवत् सम्पूज्य.
विधिवत् विधिवत् सम्पूज्य इत्युक्ते यथा विधिः वदति, सत्कारं कीदृशं भवेत् इति विधि वदति, धर्मेण सत्कार्यं करणीयम् इति. तत्र तादृश सत्कारं कृत्वा आगच्छतु इति सः स्वागतं कृतवान्
आचार्यक्रमेण.
क्रमेण, सम्यक् क्रमेण सः स्वागतं कृतवान्. श्वेतकेतु आगच्छति, अतः सः अतिथिः अस्ति. अतितेः सत्कारं कीदृशं भवति इति तत्र नियमः अस्ति. तं नियमम् अनुसृत्य देवलः स्वागतं सत्कारं कृतवान्. अतः विधिवत् सम्पूज्य. किं महोदय?
सम्पूज्य पूज्यस्य विधिवत् विशेषणं वा?
विधिवत् विशेषणं नास्ति इति मन्ये, नास्ति इति चिन्तयामि महोदय, नास्ति इति चिन्तयामि. हा, चिन्तयित्वा वदामि, इदानीं न जानामि. हा, सम्यक् एव अस्ति महोदय प्रश्नः. हा, सम्पूज्य लभन्तरूपम् अस्ति. हा, तत्र अव्ययम् अस्ति, तत्र प्रायशः, अतः तत्र विशेषणं किमपि नास्ति इति मन्ये तत्र. हा,
उद्दालकस्य पुत्रः श्वेतकेतुः महाप्राज्ञः अस्ति, एतं वरय इति. कस्य पुत्रः? उद्दालकस्य पुत्रः. एषः श्वेतकेतुः महोदय, सर्वं प्रथमाविभक्ति एकवचनं महोदय.
सत्यं सत्यं.
महाप्राज्ञः श्वेतकेतु,
श्वेतकेतुः. हा, महाप्राज्ञः श्वेतकेतुः. उद्दालकस्य पुत्रः श्वेतकेतुः एषः. सर्वं तत्र विशेषणमेव. समीचीनं महोदय. महाप्राज्ञः इत्युक्ते
एतं
महत्
यस्य महान् प्राज्ञा अस्ति, महाप्राज्ञः.
महाप्राज्ञः. हा, समीचीनं महोदय. हा, प्राज्ञः अस्ति. हा, एवम् एतं वरय.
एतम् एतं द्वितीय प्रथमं द्वितीय
वरय.
वरय
इति. हा, वरय इति लोट्लकारः,
मध्यमपुरुषे एकवचनं
लोट्लकः.
नो विधिलिङ्ग्
किमर्थं विधिलिङ्ग्?
न न न महोदय.
अग्रे.
सुवर्चना तत् श्रुत्वा कुपितः अभवत्.
हा, कुपितः इत्युक्ते
कोपितः
महोदय.
हा, कोपः, तस्य कोपः इदानीम् अस्ति. हा, किं श्रुत्वा? तत् श्रुत्वा तं वरय, एतं वरय इति तस्याः पिता उक्तवान्, अतः सा कुपिता अभवत्.
किन्तु सा गुणसम्पन्ना एकमेव तुरन्तम्.
किन्तु सा किमपि न उक्तवती खलु भगिनि.
किन्तु
केवलं मनसि 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 कोपः अस्ति, क्रोध क्रोध. हा, तावदेव. हा, सा किमपि न कृतवती, किमपि न उक्तवती खलु.
अवकाशं न ददाति.
सद्गुणेषु लोपः अस्ति चेत् तदपि सद्गुणमेव इति मन्यन्ते.
हा, सत्यं. क्रोधः अपि सद्गुणः एव, सद्गुणः एव. किन्तु कस्मिन् विषये क्रोधः भवति इति, हा, तत्र भेदः अस्ति खलु. हा, अस्तु, इदानीं पश्यामः. तदा
अवदत्. तदा महोदय, तदपि अव्ययमेव.
ताम् इत्युक्ते कां? ताम् इत्युक्ते सुवर्चलां. सुवर्चलाम् अवदत् श्वेतकेतुः. सुतां सुवर्चलाम् अवदत्. हा, किम् अवदत्?
अहम् अन्धः अस्मि, आनन्दः अपि अस्ति इति.
इदानीं श्वेतकेतुः, हा, यादृश, यत् सुवर्चला किम् उक्तवती? यः अन्धः अन्धाय आनन्दाय देहि, मां देहि इति सा उक्तवती. इदानीं श्वेतकेतुः वदति, अहम् अन्धः अस्मि, आनन्दः अपि अस्मि इति. इदानीं तत्र सुवर्चला किं वदति?
तत् कथम् इति सुवर्चला पृच्छति.
अतः सुवर्चला
पृच्छति लङ् लङ्लकारं महोदय.
हा समीचीनं. हा तत् कथं, तत् कथम् इत्युक्ते कथं भवान् अन्धः अस्ति अपि आनन्दः अस्ति, तत् कथं भवति इति सा पृच्छति अथवा सा अपृच्छत्. समीचीनं महोदय. अस्तु अग्रे उमा भगिनी.
न वन् मिनिट्, अत्र मम वट् इस् इट् डौट् द्वयम् अस्ति.
सन्देहः, तत्र संशयः अथवा सन्देहः.
ओके, महाप्राज्ञः, तत्र प्राज्ञः वट् इस् प्रा डूयिङ्ग्?
प्रज्ञा इति अस्ति भगिनि, प्रज्ञा इति, प्रज्ञा इति एकं पदम् अस्ति. कोऽपि वदति वा प्रज्ञा इत्युक्ते किम् अस्ति इति? प्रज्ञा इत्युक्ते किम्?
वैस्, वेरि वैस्.
ख्याति
न, ख्याति न, ख्याति न, तत्र तत्र किम् अस्ति ज्ञानस्य विषये
जानाति.
तत्र प्राज्ञा इति अस्ति, तत्र ज्ञानस्य, ज्ञानस्य प्रयोगः जानाति सः प्राज्ञः.
ओके, द्वितीयम् अस्ति विधिवत्. तत्र
पूर्वमेव पूर्वमेव दृष्टवन्तः खलु?
न, तत्र विभक्तिरूपं न दृष्टवन्तः.
विधिवत् तत्र प्रायशः एक प्रथमविभक्तिरूपमेव अस्ति इति मन्ये भगिनि,
कारणं मम चिन्ता अस्ति तृतीया अस्ति.
विधिवत्, हा हा, अस्तु. तत्र कीदृश, कीदृशसत्कारम् इति वा?
न, वट्, हा, विद् वाट्.
अस्तु भगिनि, तत्र चिन्तयामि, इदानीं न जानामि, दृष्ट्वा वदामि भगिनि. तत्र विधिवत् इत्युक्ते रूपं किम्
इति? भगवान् इति,
भगवत् तकारान्तपदं, भगवत् इति तादृशरूपमेव अस्ति, अतः प्रथमाविभक्ति इति, प्रथमाविभक्ति अपि नास्ति, क्षम्यतां. हा, विधिवत् इति तत्र. अस्तु भगिनि, सः सम्यक् प्रश्नः, चिन्तयित्वा वदामि भगिनि. हा, एतत् एषः एकः प्रश्नः. अन्यप्रश्नः?
न, द्वितीयम् एतत् द्वितीयम्,
एतत् एषः द्वितीयः अस्ति. अस्तु अस्तु भगिनि, अस्तु, चिन्तयित्वा वदामि, चिन्तयित्वा वदामि भगिनि. हा, विधिवत् इति रूपं कीदृशम् इति, पदस्य रूपं कीदृशम् इति, सम्यक् भवति.
कारणम् आङ्ग्लभाषायां विद् प्रापर् किं विधि,
प्रापर् प्रापर् सत्कारः इति.
अतः एव प्रश्नम् उद्भवति.
सत्यं भगिनि, अस्तु.
अपि च गुरुवत् इति पदं, गुरुवत् मति,
हा, तादृशं, हा, सत्यं, गुरुवत्. हा, अत्र किं कम्पेरिसन् अस्ति,
कम्पेरिसन् लैक् इव,
लैक्, हा, अस्तु, इव इति, सत्यं भगिनि. हा, पश्यामः, हा, वत् इति तस्य प्रयोगः कीदृशम् इति. अस्तु, किन्तु दृष्ट्वा वदामि भगिनि. अस्तु, अन्यप्रश्नः
समाप्तं, मम प्रश्नः समाप्तः.
अस्तु
महोदय, सुवर्चला इति नामस्य अर्थः कः?
न जानामि भगिनि. सुवर्चला प्रायः,
सुवर् इत्युक्ते, वर् इत्युक्ते पतिः, सुवर्चला.
हा, न जानामि भगिनि, तत्र किमपि अस्ति न वा इति न जानामि, तत्र अर्थः कः इति. हा, प्रायः स्पोकन् संस्कृत् मध्ये पश्यति चेत् किमपि लभ्यते तत्र. अस्तु, किन्तु न जानामि भगिनि, तत्र अर्थः किं कः इति. अस्तु, इदानीं तत्र केतु तत् कथम् इति सुवर्चला पृच्छत्. हा, इदानीं नरेश् महोदय अग्रे पठति वा?
आं महोदय. श्वेतकेतुः अवदत्, परमात्मनः कारणादेव जीवात्मा अहं पश्यामि, शृणोमि, जग्रामि वा? परमात्मा एव चक्षुः, वस्तुतः सः एव पश्यति, न अहम्। अतः अहम् अन्धः। किन्तु मम कदापि संशयः न भवति, अतः संशयाभावरूपं चक्षुः मम अस्ति, अतः अहम् अनन्धः। एवम् अहम् अन्धः, अनन्धः अपि इति।
हा अस्तु, समीचीनं महोदय। हा अस्तु, इदानीं गम्भीरविषयः अत्र खलु कथायाम्। अस्तु, तत्र एषः उक्तवान् अहम् अन्धः अस्मि, अनन्दः अपि अस्मि इति। सुवचला इदानीं पृच्छति तत् कथम् इति। अतः श्वेतकेतुः अवदत्। किम् वदति महोदय तत्र परमात्मनः?
सः अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि।
हा इदानीं तत्र तद् भागं स्वीकुर्मः। तत्र अहं पश्यामि, अहं पश्यामि इति अस्ति। अस्तु, तत्र तस्य पूर्वं जीवात्मा इति अस्ति। तत्र जीवात्मा अहं पश्यामि इत्युक्ते तत्र किम् अर्थः कः? तत्र
जीवात्मा,
तत्र जीवात्मा इति पदस्य विभक्ति का इति जानाति वा?
स्त्रीलिङ्गः एकवचनं,
न न, स्त्रीलिङ्गं नास्ति। तत् आत्मन् इति नकारान्तपदमस्ति, आत्मा इति भवति। हा, एतद् अत्र न एतावत् न कृतवन्तः, एतादृशपदम्। एतत् नकारान्तपदमस्ति तत्र, आत्मन् आत्मन् इति। हा, जीवात्मा इति प्रथमविभक्ति एव अस्ति, प्रथमविभक्ति एव अस्ति। तत्र अहं जीवात्मा, अहं जीवात्मा अहं पश्यामि, अहम् अहमेव जीवात्मा अहं पश्यामि। किन्तु कस्मात् कारणात् अहं द्रष्टुं शक्नोमि? कस्मात् कारणात् अहं पश्यामि? अहं पश्यामि अहं द्रष्टुं शक्नोमि, किन्तु कस्मात् कारणात्? कस्मात् कारणात् केन कारणेन एतत् भवति इत्युक्ते, हा वदतु महोदय।
परमात्मनः
कारणात् एव परमात्मा अस्ति, परमात्मा अस्ति तस्य कारणात्, सः अस्ति तस्य कारणात् एतत् अहं कर्तुं शक्नोमि, अहं पश्यामि। अहं जीवात्मा अस्मि, अहं परमात्मा नास्मि, अहं जीवात्मा अस्मि, अहं पश्यामि। किन्तु कस्मात् पश्यामि? परमात्मा अस्ति तस्मात् अहं पश्यामि। तत्र परमात्मनः, परमात्मनः इति अस्ति षष्टिविभक्तिरूपम् अस्ति। हा, परमात्मनः कारणात्, तस्य कारणात् अहं जीवात्मा पश्यामि, शृणोमि, जिघ्रामि वा? हा, तत्र पश्यामि इति सर्व वयं जानीमः, शृणोमि अपि जानीमः, जिघ्रामि इत्युक्ते किम्? स्मेल् वा, गृधातुः, जिघ्रामि वा? अतः तत्र पश्यामि, शृणोमि, जिघ्रामि वा, सर्वं कस्मात् कारणात् जीवात्मा अहं कर्तुं शक्नोमि? परमात्मनः कारणात् कर्तुम् एतत् सर्वं भवति। हा, इदानीम् अग्रिमवाक्यं महोदय।
परमात्मा एव चक्षुः।
हा, परमात्मा एव, तस्मात् तस्य कारणात् एव अहं द्रष्टुं शक्नोमि, अतः सः एव चक्षुः। वस्तुतः सः एव पश्यति। सः इत्युक्ते कः? सः इत्युक्ते कः? परमात्मा, परमात्मा एव पश्यति, न अहं, न अहं जीवात्मा। अहं न पश्यामि, अतः अहम्
अन्धः,
अतः अहम् अन्धः, अहं द्रष्टुं न शक्नोमि, अतः अहम् अन्धः. हा इदानीं, हा किन्तु,
किन्तु मम कदापि संशयः न भवति.
हा इदानीम् अत्र किं भवति, किं वदति सः? हा
अहं संशयः न करोमि.
कस्मिन् विषये?
अतः
कस्मिन् विषये संशयः न भवति?
जीवात्मा विषये संशयः न करोमि.
न न न न न न, हा किञ्चित्
अहं पश्यामि वा परमात्मा पश्यति वा,
हा इति विषये मम संशयः कदापि नास्ति. किं किं निश्चितमस्ति मम मनसि? अहमेव पश्यामि इति एव निश्चयः अस्ति खलु. वयं सर्वे किं चिन्तयामः? अहं पश्यामि, अहं पठामि इति एव वदामः. कोऽपि वदति वा परमात्मा इदानीं गीतासोपानं पठति इति वदामः वा?
इति विषये सर्वेभ्यः किमपि
संशयः नास्ति. हा वयं सर्वे अतः अस्माकं मनसि कदापि संशयः न भवति. अहमेव पश्यामि इति एव अस्माकं चिन्तनम् अस्ति. तत्र अहं पश्यामि न वा इति कदापि संशयः न भवति. एतदेव बहु अत्र परिच्छेदः, बहु गम्भीरपरिच्छेदः एषः. अस्तु अग्रिम अग्रिम महोदय.
अतः संशय भावरूपं चक्षुः मम अस्ति. मम चक्षुः अस्ति संशयभावरूपम्.
हा तत्र चक्षुः इति पदस्य संशयाभावरूपम् इति विशेषणं भवति. तत्र किञ्चित् न्यायशास्त्रस्य विषयः आगच्छति अत्र. तत्र तत्र उदाहरणार्थम् एतद् वदामि, घटः अस्ति इति. घटः अस्ति चेत् किं तत्र वदामः? घटः अस्ति इति. किन्तु न्यायशास्त्रे घटः अस्ति चेत् वयं किं वदामः? घटः अस्ति. घटः नास्ति चेत् किं वदामः? घटः नास्ति इति वदामः. किन्तु न्यायशास्त्रे किं भवति? घटः अस्ति चेत् हा घटः अस्ति इति वदन्ति. किन्तु घटः नास्ति चेत् किं वदन्ति? घटाभावः अस्ति, घटस्य अभावः. भावः इत्युक्ते अस्ति, अभावः इत्युक्ते नास्ति. घट अभावः, घटस्य अभावः अत्र अस्ति इति वदन्ति न्यायशास्त्रे. अत्र किम् अस्ति? संशय अस्ति वा मम मनसि? नो, न. अतः संशयः नास्ति इत्युक्ते संशयाभावः अस्ति, अभावः, संशयस्य अभावः. तादृशचक्षुः, संशय अभावरूपं चक्षुः मम अस्ति. मम चक्षुः अपि अहं कदापि संशयभूतः न भवामः. सर्वदा चिन्तयामः अहमेव पश्यामि, चक्षुः अपि चिन्तयति अहमेव पश्यामि इति. अत्र संशयः नास्ति, संशय अभावः अस्ति, संशय अभावरूपं चक्षुः मम अस्ति. सर्वे अवगच्छन्ति वा? समीचीनं वा? संशयः नास्ति इति अत्र विषयः. हा अस्तु अग्रे महोदय. अतः
अत्र चक्षुः, महोदय चक्षुः इति कर्मपदं?
न, मम अस्ति, मम चक्षुः अस्ति. कीदृशचक्षुः? संशयाभावरूपं चक्षुः इति. चक्षुः, चक्षुस् इति प्रायशः सकारान्तपदम् अस्ति भगिनि, नपुंसकलिङ्गपदं. हा चक्षुस्, तत्र धनुष् सर्वं दृष्टवन्तः एकवारं खलु.
अत्र संशय अभावरूपम् इति अपि प्रथम, महोदय?
तदपि प्रथम एव, नपुंसकलिङ्गपदम् अस्ति भगिनि एतद्. अतः चक्षुः इति तत्र विसर्गः अस्ति इति इति कारणेन पुल्लिङ्गपदम् इति मा चिन्तयतु. गुरुवत् न गुरुवत् अपि नास्ति 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 नपुंसकलिङ्गपदं चक्षुष इति गुरुवत् आसीत् चेत् तत्र रूपम् इति न भवति अस्तु संशय अत्र संशयाभावरूपं तत्र यकारस्य इकारस्य अनन्तरं दीर्घ अकारः अस्ति संशयः योगः अभावः रूपम् अतः संशयाभावरूपचक्षुः मम अस्ति अतः अग्रे महोदय अतः अहम् अन्धः वा अहं द्रष्टुं शक्नोमि मम चक्षुः अस्ति अतः अहम् अनन्दः
एवम् अहम् अन्धः अनन्दः अपि इति
हा इदानीं सः किं तत्र समाधानं ददाति सुवर्चलायाः प्रश्नस्य उत्तरं सम्यक्तया सः ददाति कस्मात् कारणात् सः अन्धः कस्मात् कारणात् सः अनन्दः द्वयमपि सः वदति समीचीनं वा इदानीं सर्वे अवगच्छन्ति वा सर्वे स्वीकुर्वन्ति वा सः अन्धः अपि अनन्दः इति
महोदय अहं सुवर्चस् इति पश्यामि सुवर्चस् इत्युक्ते वित् फायर् फायरी
वर्चस् वर्चस् इत्युक्ते तत्र फायर् इति ज्ञाते वर्चस् इत्युक्ते तत्र अन्ते किमपि तत्र फायर् इत्युक्ते तत्र शैनिङ्ग् भवति इति तेजस् तेजस् इति वर्चस् तादृश पदमस्ति तस्मिन् पुरुषे अथवा तस्यां महिलायां किमपि अस्ति सा महिला बहु किं तपस् कृतवती अथवा तादृश किमपि अस्ति तत्र तेजस् अथवा वर्चस् इति वदामः अतः सुवर्चस्
सुवर्चस्
अतः भवती चिन्तयति वा सुवर्चस् अपि सुवर्चला इति तत्र सम्बन्धः अस्ति इति अस्तु भगिनि अस्तु भगिनि सम्यक् एव अस्ति न जानामि किन्तु सम्यक् एव ऊहा सम्यक् एव अस्ति सुवर्चस् इति अस्तु अग्रे उमा भगिनी पठति वा श्वेतकेतोः
श्वेतकेतुः अभवत् अवदत् श्वेतकेतोः
श्वेतकेतोः
उत्तरेण सुवर्चला नितरां सन्तुष्टा अभवत् सा पितरम् अवदत् पितः एषः मह्यं रोचते मया एषः वृत्तः अस्ति माम् एतस्मै ददातु इति
देवलः
अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान् सुवर्चला श्वेतकेतोः सहधर्मचारी अभवत्
सहधर्मचारी
अभवत् तौ दम्पती दीर्घकालं यावत् सुखेन गार्हस्थ्यम् आचरितवन्तौ एतस्मिन् पाठे कानिचित् अव्ययानि वर्णाक्षरैः दर्शितानि सन्ति
समीचीनं भगिनि इदानीं श्वेतकेतोः इति
श्वेतकेतोः उत्तरेण सुवर्चला नितरां सन्तुष्टा अभवत्
तत्र श्वेतकेतोः
तस्याः इच्छानुगुणं
वरं प्राप्तवती समीचीनं समीचीनं भगिनि इदानीं तत्र श्वेतकेतोः इति अस्ति तत्र
षष्टि
समीचीनं श्वेतकेतुः श्वेतकेतोः इति उत्तरेण
उकारान्त
समीचीनं भगिनि. उत्तरेण इति तृतीया,
उत्तरेण तृतीया, सुवर्चला प्रथमा, नितरां सन्तुष्टा,
सन्तुष्टा इति किं भवति,
सुवर्चला विशेषण,
विशेषण विशेषभावः. हा, नितराम् इत्युक्ते किम्?
प्रोबब्लि अव्ययम्.
हा, किन्तु नितराम् इत्युक्ते एण्टैर्ली अथवा स्पेशलि इति अर्थे. नितराम्, नितराम् नितरां सन्तुष्टा अभवत्. हा, तदनन्तरं किं सा
महोदय, नितरां विशेषणं नास्ति
तत्र, विशेषणं नास्ति, सत्यं.
नितराम् इति पदपरिचय महोदय विभक्ति,
तत्र नितराम् इति तत् अव्ययं नास्ति इति मन्ये. नितराम् अव्ययमेव अस्ति खलु? एकनिमिष, तत्र नितराम् अव्ययमेव अस्ति वा? नितरां प्रायशः अस्ति. नितरां, नितरां, हा हा, तत्र किं, तत्र क्रियापदस्य, हा, तत्र क्रियापदस्य विशेषणम् अपि भवति, अपि अव्ययमपि अस्ति.
अत्र विशेषणम् अस्ति महोदय, नितरां सन्तुष्टा.
अतः सन्तुष्टा, सन्तोषस्य भावः तत्र नितरां, तादृश तत्र, अस्तु, तादृश विशेषणमिति, तत्र विशेषणमिति चिन्तयितुं शक्नुमः. सत्यं भगिनि, अस्तु. अग्रे
अग्रे सा पितरम् अवदत्, ओके, एवं सा वदति, पितः एषः मह्यं रोचते.
एषः मह्यं रोचते,
रोचते चतुर्थी विभक्ति, अतः मह्यं.
एषः इत्युक्ते कः?
श्वेतकेतुः.
हा, एषः श्वेतकेतुः मह्यं रोचते. मया,
मया एषः वृत्तः, वृतः अस्ति. वृतः इत्युक्ते
अहं चिनोमि. हा, वृतः इत्युक्ते सेलेक्टेड् इति. He has been selected by me.
Oh, okay. Maya, this is Maya Tritiya Asti, no?
Haan, Maya Tritiya Asti. Maya?
Maya Eshaha Vritaha.
Vritaha, Vritaha Asti.
So, Aham Tam Chinomi.
Something like that. Satyam, Satyam, Satyam. Satyam.
Aham Tam Chinomi. Satyam. Dadatu.
Maam, Etasmai.
Maam, Etasmai Dadatu. दानार्थं चतुर्थी, अतः एतस्मै.
किं ददातु? मां ददातु, मां ददातु. कर्तृपदं?
पिता,
पिता, भवान् तत्र अथवा भवान् अत्र ददातु इति प्रथमपुरुषः. समीचीनं
महोदय. अत्र यदि वृतः इति न उपयुज्य,
तत्र उमा भगिनी उक्तवती एतम् अहं चिनोमि,
किन्तु मया
इति कर्मणि प्रयोगे अस्ति.
यदि वृतः,
वृतः इति तस्य, वृतः इति तस्य क्रियापदं किम् अस्ति तत्र? वृत्यते, ओ, तत्र बहु किमपि विकल्पाः सन्ति भगिनि. तत्र तत्र वृतः, वृणो, तत्र किं वृषति अस्ति, वृणुते अस्ति, वृणोति अस्ति, वृणाति अस्ति, वृणीते अस्ति, बहु किमपि अस्ति क्रियापदं. तत्र सर्व, तत्र कर्मणि प्रयोगे अत्र अस्ति. वृतः इत्युक्ते एतं वृणोमि अथवा एतं वृणोमि अथवा एतं वृषामि, एतं वृणुमे इति बहु किमपि अस्ति भगिनि तत्र.
यदि चिनोति इति
तत्र अर्थार्थं समानार्थकं, चिनोमि इत्युक्ते सेलेक्टेड् इति, किन्तु अत्र केवलं सेलेक्टेड् इति नास्ति खलु, तत्र अहं विवाहं कर्तुम् इच्छामि अपि अत्र अस्ति खलु. अतः अतः अत्र अहं चिन्तयामि तत्र, हा, एतत्
तदेव चिनोति इति पदस्य अत्र नास्ति.
हा, केवलं चिन्, हा, अत्र किञ्चित् अधिकम् अस्ति अत्र. अस्तु, अत्र पश्यतु, मह्यम् अस्ति, माम् अस्ति, मया अस्ति. अतः विभक्ति विभक्तित्रयम् अस्ति तत्र. अस्तु, हा अग्रे भगिनि, उमा भगिनि अग्रे.
देवलः अपि अत्यन्तं सन्तोषेण श्वेतकेतवे सुवर्चलां दत्तवान्.
हा, तत्र श्वेतकेतवे इति विभक्ति का?
चतुर्थी.
चतुर्थी, हा, तस्मै श्वेतकेतवे सुवर्चलां दत्तवान् सन्तोषेण. भावः सन्तोषेण दत्तवान्, सन्तोषेण दत्तवान् सुवर्चलां दत्तवान् देवलः. अग्रे
अग्रे सुवर्चला श्वेतकेतोः सह धर्मचरी अभवत्. सह धर्मचरी न जानामि, धर्मं ये आचरन्ति एवं.
हा, तत्र तत्र वयं वदामः तत्र पत्नी इति वदामः, धर्मपत्नी इति वदामः, सहधर्मपत्नी इति अपि रूपमस्ति. हा, तत्र सहधर्मपत्नी इति सहधर्मचरी इति.
इत्युक्ते
इत्युक्ते सहधर्मचरी इत्युक्ते मिलित्वा एव धर्मम् आचरन्ति. हा, तत्र होमः अस्ति चेत् हा केवलं पतिः न कर्तुं शक्यते खलु, पत्न्या सह एव कर्तुं शक्यते सः. अतः बहु बहुत्र दम्पती अस्ति चेत् तत्र हा तत्र सहधर्मचरी भवति. श्वेतकेतोः सहधर्मचरी इत्युक्ते सा धर्मम् आचरति. केन सह? श्वेतके किं तृतीयविभक्ति किम् अस्ति? श्वेतकेतुः, तेन श्वेतकेतुः, गुरुः. गुरुः शब्दस्य तृतीयविभक्तिरूपं किम् अस्ति एकवचने?
गुरुणा.
हा, अत्र श्वेतकेतुः श्वेतकेतुना सह धर्मं सा आचरति.
अत्र धर्मचरी सह धर्मचरी एकवचनं वा द्विवचनम्?
एकवचनम्. सुवर्चला, सुवर्चला इति पदस्य विशेषणम् अस्ति. सा सुवर्चला, सह श्वेतकेतोः सह धर्मचरी सुवर्चला अभवत्. हा अग्रे.
तौ दम्पती दीर्घकालं यावत् सुखेन गार्हस्थ्यम् आचरितवन्तौ. अत्र द्विवचनरूपाणि सन्ति.
समीचीनं भगिनि, आचरितवन्तौ.
आचरितवन्तौ,
तौ आचरितवन्तौ इति. हा अस्तु, तत्र
दम्पती अपि अस्ति न? दम्पती अपि अस्ति न द्विवचन?
दम्पती इति अस्ति, तत्र किं भवति? तत्र
द्विवचने.
द्विवचने वा?
एकवचनं
न, किन्तु अर्थ द्वौ अस्ति न महोदय?
दम्पती सर्वदा द्विवचनम् इति चिन्तयामि.
हा, किन्तु तत्र किम् अस्ति, किन्तु रूपं किम् अस्ति चेत् तत्र सत्यमेव द्विवचने एव अस्ति. तत्र तत्र किम् अस्ति, दम्पतिः इति पुल्लिङ्ग इकारान्तपदमस्ति कविवत्. तत्र कवि कविपदस्य प्रथमविभक्तिरूपं किम् अस्ति?
कविः, कवयः.
हा, अत्र दम्पती इति ह्रस्व इकारः वा दीर्घ इकारः?
दीर्घ अस्ति अत्र,
दीर्घ इकार अस्ति, अपि स्त्रीलिङ्ग नास्ति, पुल्लिङ्गपदम् अस्ति.
तदनन्तरं द्विवचनम् अस्ति.
द्विवचनं कथं जानीमः तत् पुल्लिङ्गपदम् इति?
तौ
इति अस्ति, हा तौ इति अस्ति. हा, तौ दम्पती, अतः दम्पती द्विवचने अस्ति. दम्पतिः इति पुल्लिङ्गपदमस्ति, दम्पती इति तस्य द्विवचनरूपम्. त्वौ दम्पती, तौ दम्पती दीर्घकालं यावत्. तत्र समयस्य विषयः, दीर्घकालं ते आचरितवन्तौ. किम् आचरितवन्तौ? गार्हस्थ्यम्. गार्हस्थ्यमित्य गृहस्थवासं, गृहस्थं, गृहस्थम् आचरन्तो तत्र गार्हस्थ्यम् इत्युक्ते गृहस्थविषय सम्बद्ध तत्र भारतदेशः भारतदेशः अस्ति भारतीयः अस्ति अथवा अन्यत् न तत् प्रायशः नास्ति तत्र दशरथः अस्ति दाशरथी इति तत्र तस्य पुत्रः तत्र आकारान्त आगच्छति खलु
भरतस्य भारत
हा तादृशप्रयोग तत्र विषयसम्बन्ध इति तत्र गृहस्थ इति विषये सम्बद्ध एतत् गार्हस्थ्यम् इति तत्र किमपि प्रत्ययः अस्ति तेन एतद् रूपं भवति न जानामि द्रष्टव्यमस्ति किन्तु गृहस्थवासम् इति गृहस्थवासं न किं तत्र
जीवनं
हा गृहस्थजीवनं गृहस्थजीवनम् अन्यत् अपि तत्र वक्तुं शक्नुमः तत्र किमस्ति कोऽपि जानाति वा तत्र प्रायशः अन्यत् रूपमपि अस्ति तत्र गृहस्थ वा जीवनम् अथवा अस्तु इदानीं न स्मरामि अस्तु सुखेन गृहस्थजीवनम् आचरितवन्तौ तौ दम्पती दीर्घकालं यावत् अपि सुखेन सुखेन ते आचरितवन्तौ अस्तु एतस्मिन् पाठे
किमर्थं सुखेन एकवचनपदमत्र
गार्हस्थ्यम् आचरितवन्तौ तत्र तत्र भावः अस्ति भगिनि तत्र अहं सन्तोषेण गायामि वयं सन्तोषेण गायामः तत्र तृतीयविभक्तिरूपमस्ति तत्र किमर्थं तत्र विभक्ति तत्र वचनं
तृतीयाम् अवगच्छामि किन्तु सुखाभ्यां
किमर्थं सुखाभ्यां
द्विवचने महोदय
न भगिनि अत्र पश्यतु तत्र अहं सुखेन गायामि अस्तु अहं सुखेन गायामि इदानीं वयम् इति भवति इदानीं किं रूपं
वयं सुखैः
न तत्र अस्तु तत्र अनेकानि मित्राणि सन्ति इदानीं मित्राणि सन्ति तैः सह भवती गच्छति तस्मिन् समये भवती वदति मित्रैः सह इति किन्तु अत्र सुखम् इति अस्ति सुखेन गायामि सुखेन सर्वे गायन्ति वयं सर्वे सुखेन गायामः तत्र केवलं कर्तृपदस्य अपि क्रियापदस्य तत्र किं वचनसम्बन्धः अस्ति हा तत्र कर्मपदस्य वा अथवा अन्यपदस्य तत्र वचनसम्बन्धः नास्ति खलु
आं महोदय अत्र गार्हस्थ्यम् इति विभक्ति
गार्हस्थ्यं तत्र द्वितीयविभक्ति किम् आचरितवन्तौ कर्मपदं वयं पाठं पठामः वयमिति बहुवचने अस्ति पठामः अपि बहुवचने अस्ति किन्तु पाठम् इति एकवचने अस्ति तादृश अत्र तौ आचरितवन्तौ किम् आचरितवन्तौ गार्हस्थ्यम् आचरितवन्तौ अस्तु गार्हस्थ्यं किञ्चित् क्लिष्टः अस्ति तत्र अस्तु अस्तु सर्वे एषा कथा सन्तोषजनका कथा अस्ति वा
महोदय बहु सुन्दरं
अस्ति प्रथमतया पश्यामश्चेत् एतादृश कुत्र भवितुं शक्नोति इति चिन्तयामः अन्धः अस्ति आनन्दः अपि अस्ति इति किन्तु इदानीं किं सर्वे किं चिन्तयन्ति वयं सर्वे अन्धाः वा अथवा आनन्दाः वा किं द्वयमपि वयं सर्वे अन्धाः अपि आनन्दाः अपि समीचीनं भगिनि अस्तु अस्तु तर्हि अग्रे गच्छामः
एतद् वक्तुं शक्नोति नैयायिकः सः भवती पत्नी अपि अस्ति अपत्नी अपि अस्ति
किं महोदय किं 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 न अवगतं
नैयायिकाः
हा नैयायिकाः
अतः पत्नी अपि अस्ति अपत्नी अपि अस्ति अनन्तरं वदति चेत्
अस्तु महोदय नैयायिकाः किं किं कुर्वन्ति इति अस्तु अस्तु हा अस्तु तर्हि हा
महोदय
हा
दम्पती अहं चिन्तयामि द्वयं शब्द एव
हा सत्यं भगिनि दम्पती इति अस्ति किन्तु पदस्य रूपं किम् इत्युक्ते तद् इकारान्तपुल्लिङ्गदम्पतीपदम् तत्र दम्पतिः इति प्रथमाविभक्ति एकवचनरूपम् अस्ति किन्तु तस्य प्रयोगः सर्वदा किं भवति तत्र द्विवचने भवति अत्र तौ दम्पती इति किन्तु तत्र पश्यतु तत्र मन्दिरमस्ति तत्र अनेकाः जनाः आगताः सन्ति तत्र केवलं दम्पती एकमेव अस्ति वा तत्र तत्र बहवः दम्पतयः सन्ति तत्र दम्पति इति वा समासप्रायशः अस्ति भगिनि तस्य निर्माणं न जानामि समीचीनः प्रश्नः अस्तु एकः अस्ति तत्र किं विधिवत् इति एकः अन्यत् अस्ति इदानीं दम्पतिः इति अस्तु दृष्ट्वा वदामि न जानामि
पतिः शब्दः अस्ति एव
अस्तु 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 भगिनि अस्तु अस्तु दम्पतिः अस्तु अस्तु तर्हि वस्तुतः अत्र विषयः कः इत्युक्ते अव्ययानि इति विषयः वयं कथायाः विषये किं बहु किमपि चर्चितवन्तः किन्तु अत्र मूलविषयः अस्ति अव्ययम् इति अव्ययम् इत्युक्ते किम्
विभक्तिरूपं नास्ति
तत्र भेदः नास्ति रूपपरिवर्तनं कदापि न भवति एकमेव रूपम् अस्ति तत्र व्ययः न भवति व्ययः न भवति यस्य सः अथवा तद् अव्ययम् अत्र तत्र अव्ययम् इति तत्र बहु किमपि अस्ति खलु तत्र अनेकानि अव्ययानि सन्ति अत्र पुरा यदा तदा अपि इति श्रुत्वा श्रुत्वा इति दृष्ट्वा किं वक्तुं शक्नुमः तत्र त्वान्तरूपं क्रियापदेन यदि त्वान्तरूपं कुर्मः त्वान्तरूपम् अव्ययं भवति एतत् जानीमः खलु तत्र एतत् कृत्वा सः गतवान् अथवा एतत् कृत्वा सः गतवती वयं गतवन्तः तत्र कृत्वा इति पदस्य तत्र अनन्तरं किमपि भवति तत्र पुरुषः वा वचनं वा किमपि भवतु रूपं समानमेव भवति कृत्वा एव अस्ति अतः तद् अव्ययं तत्र परिवर्तनं न भवति तद् कृत्वा रूपमेव भवति अतः त्वान्तरूपं सर्वम् अव्ययानि तदनन्तरम् इव अपि धातुम् इति अस्ति अपि अन्यत् आनेतुं परिणेतुम् इति अपि अस्ति अतः तुमुन् रूपमपि अव्ययानि अव्ययम् अस्ति किमपि क्रियापदं भवतु तस्य तुमुन् रूपम् अव्ययम् अस्ति तदनन्तरं त्वान्तरूपं श्रुत्वा कृत्वा इति अस्ति तदनन्तरं दृष्ट्वा अस्ति अपि निन्दित्वा अस्ति त्वान्तरूपं किन्तु एकमासीत् तत्र सम्पूज्य इति सम्पूज्य इति मान्तरूपं वा उपसर्ग अस्ति अतः ल्यबन् ल्यप् ल्यबन्तरूपम् अस्ति क्रियापद उपसर्गसहितक्रियापदस्य ल्यबन्तरूपं स्वीकुर्मश्चेत् तद् ल्यबन्तरूपमपि अव्ययम् अस्ति इति तदा इति अनेकानि अव्ययानि सन्ति अव्ययम् एव विषयः मूलविषयः अस्ति तत्र अग्रिमपुटे केवलम् एकवारं तत्र श्लोकं पठामः तत्र अव्ययं विषये तत्र एतावत् कः न पठितवान् सर्वे पठितवन्तः इति मन्ये अस्तु गीताञ्जलि भगिनी तत्र एकवारम् अग्रिमे पुटे 158 मध्ये उपरि तत्र ये मूलवाक्यम् अस्ति तत्र अव्ययम् इति विषये तदेकवारं पठति वा भगिनि
अवधेयं त्रिषु लिङ्गेषु सप्तसु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति तत् अव्ययम्
सदृशं अग्रे श्लोकमपि
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्न येति तदव्ययम्
यन् न वेति यत् न व्येति तत् तत् अव्ययम् तत्र सदृशम् इत्युक्ते समानरूपं परिवर्तनं न भवति परिवर्तनमिति तस्य अन्यपदमस्ति विकारं परिवर्तनं विकारम् अथवा व्ययः न भवति व्ययः वा व्येति यस्य व्ययः व्ययः इत्युक्ते उपरि गच्छति अधः गच्छति व्ययः परिवर्तनं परिवर्तनम् इति यस्य परिवर्तनं न भवति तत् अव्ययम् तत्र त्रिषु लिङ्गेषु इति अस्ति सप्तसु विभक्तिषु इति अस्ति तत्र त्रिषु लिङ्गेषु इति अस्ति तत्र लिङ्गेषु इति तत्र
सप्तमी
विभक्ति किन्तु तत्र कीदृशपदं तत्र लिङ्गेषु नपुंसकलिङ्गपदं वा पुल्लिङ्गपदं वा स्त्रीलिङ्गपदं वा लिङ्गम् इति नपुंसकलिङ्गपदं सत्यम् अतः त्रिषु लिङ्गेषु अस्तु तदनन्तरं विभक्तिषु इति सप्तसु इति अस्ति तत्र विभक्ति स्त्रीलिङ्गपदम् अस्ति तदनन्तरं वचनम् अपि नपुंसकलिङ्गपदं त्रिषु वचनेषु च एतेषु च यत् विकारं न प्राप्नोति लिङ्गपरिवर्तनं करोतु विभक्तिपरिवर्तनं करोतु वचनपरिवर्तनं करोतु किन्तु एतस्य रूपं सदृशमेव भवति परिवर्तनं न प्राप्नोति परिवर्तनं न भवति तद् अव्ययम् इति अस्तु अस्तु भेदः नास्ति अथवा परिवर्तनं नास्ति इति अर्थः भगिनि व्ययः नास्ति इति तस्य क्रियापदं अस्तु इदानीं तत्र अव्ययपदम् अस्तु इदानीं तत्र अपि इति विषये किमपि दत्तमस्ति किन्तु इदानीं किं कुर्मः तत्र अव्ययविषये यदा तदा एतत् सर्वम् अग्रिमवर्गे कुर्मः तत्र अस्तु किन्तु निश्चयेन प्रायशः खलु अपेक्षया एतत् सर्वम् अव्ययानि सन्ति तस्य विषये चर्चा भवति अग्रिमवर्गे अस्तु समीचीनम् अन्यप्रश्नः अस्ति वा अस्तु तर्हि अग्रिमवर्गे मिलामः सर्वेषां धन्यवादाः नमस्कारः अग्रिमवर्गे
नमस्कारः शुभदिनं
शुभदिनं भगिनि नमस्कारः
शुभदिनं फार् यू शुभरात्रि
अस्तु सत्यं भगिनि शुभरात्रि